प्रतिगुम हवामहे कविम कवीनाम पमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पद आन शृण्वन्नोतिभिः सेधसाजनम् प्रणो देवी सरस्वती वाजिभिर्वाजिनीवती धीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायात वदया नो रुद्रमृदया याते रुद्र शिवा तनुर्घोरा पापकाशिनी तया नस्तनुवाशन्त मया गिरिशन्ता विचाकशीः यामिषुम् गिरिशन्त हस्ते बिभर्षस्तवे शिवाम् गिरित्रताम् कुरु माहिगुंसि पुरुषम् जगत शिवेन वचसा त्वा गिरिशा चावदामसि यथा नः सर्वमिज्जगदयक्ष्मगुंसुमनासत अद्य भो जदति भक्ता प्रथमो दैवोऽभिषक अहिगुश्य सर्वाञ्जम्भयन् सर्वाश्चयातु धान्यः असो यस्ताम्रो अरुण उत बभ्रुस्सु मङ्गलः ये क्षेमागुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हे दयीमहे असो यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपादृशन्नदृशन्नुदहार्यः उतैनम् विश्वाभूतानि सदृष्टो मृदयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मेदुषे अथो ये अस्य सद्वानोऽहन्तेभ्यो करन्नमः प्रमुञ्च धन्वनस्तमुभयोरात्नियोजा याश्च ते हस्त इषवः पराता भगवो वप अवतत्वदनुष्टगुम् सहस्राक्षशतेषु दे निशेरशल्यादामुखा शिवो नः सुमना भव विज्रम् दनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मे दुष्टमहस्ते बभूवते धनुः शयास्मान्विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाथताय कृष्णवे उभाभ्यामुदते नमो बाहुभ्यावधन्वने परिते धन्वनो हेतिरस्मान् मृणक्तु विश्वतः अथो य इषु दिष्टवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशाचपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः संस्पिञ्जराय कृषिमते पथिनां पतये नमो नमो बभृशाय दिव्यादिनेनानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेजे जगता पतये नमो नमो रुद्राय तथा विनिक्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहितायस्य पतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्मृतायोषधीनां पतये नमो नमः उच्चैर्घोषाय क्रन्दयते पत्तिना पतये नमो नमः कृष्णभीताय धावते सद्वना पतये नमः नमस्सहमानाय निव्यादिन आव्यादिनेना पतये नमो नमः ककुभाय निषङ्गिने सेनानां पतये नमो नमो निषङ्गिन इषुधिमते तस्करानां पतये नमो नमो वञ्चते परिवञ्चते सायूनां पतये नमो नमो निशीरवे परिचरायारण्यानां पतये नमो नमः श्रीकाविभ्यो जिगागुंसद्भ्यो उष्णतां पतये नमो नमो सिमद्भ्यो नप्तं शरभ्य प्रकृन्तानां पतये नमो नमः उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नमः इषुमद्भ्यो दन्वाभिभ्यश्च वो नमो नमः आदन्वानेभ्य प्रतिददानेभ्यश्च वो नमो नमः आयच्छद्भ्यो वृषिजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नमः आशीनेभ्यश्च यानेभ्यश्च वो नमो नमः शपद्भ्यो जागरद्भ्यश्च वो नमो नमस्तिष्ठभ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्यादिनेभ्यो विविद्यन्तेभ्यश्च वो नमो नम उगनाभ्यश्रीगुंहतेभ्यश्च वो नमो नमो वृत्सेभ्यो वृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूप ेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रतपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रिभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिषेभ्यो निषादेभ्यश्च वो नमो नमः इषुकृभ्यो जन्मकृभ्यश्च वो नमो नमो मृगयुभ्यः शनिभ्यश्च वो नमो नमः स्वभ्यश्वपतिभ्यः वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकन्ताय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतदन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मेदुष्टमाय चेषुमते च नमो ह्रस्वाय च वामने ಜನಾಯ ಚ ನಮೋ ಬೃಹತೆ ಚ ವೈಶೇಯಸೆ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ಧನೆ ಚ ನಮೋ ಅಗ್ರಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮ ಆಶವೆ ಚಾಜಿರಾಯ ಚ ನಮ ಶೀಘ್ರಯಾಯ ಚ ಶೀವ್ಯಾಯ ಚ ನಮ ಊರ್ಮ್ಯಾಯ ಚ ಭಸ್ವನ್ಯಾಯ ಚ ನಮ ಶೋತಸ್ಯಾಯ ಚ ದ್ವೇಭ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮ ಪೂರ್ವಜಾಯ ಚಾಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚಾಪಗರ್ಭಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುಧ್ನಿಯಾಯ ಚ ನಮ ಶೋಭ್ಯಾಯ ಚ ಪ್ರತಿಶರ್ಯಾಯ ಚ ನಮೋ ಯಾಮ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮ ಉರ್ವರ್ಯಾಯ ಚ ಕಲ್ಯಾಯ ಚ ನಮ ಶ್ಲೋಕ್ಯಾಯ ಚಾವಸಾನ್ಯಾಯ ಚ ನಮೋ ಭನ್ಯಾಯ ಚ ಕಕ್ಷಾಯ ಚ ನಮ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮ ಆಶುಷೇನಾಯ ಚಾಶುರಥಾಯ ಚ ನಮ ಶೂರಾಯ ಚಾಭವಿಂದತೆ ಚ ನಮೋ ಬರ್ಮಿನೇ ಚ ಬರೂದಿನೇ ಚ ನಮೋ ಬಿಲ್ಮಿನೇ ಚ ಕವಚಿನೇ ಚ ನಮ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಹನನ್ಯಾಯ ಚ ನಮೋ ವಿಷ್ಣವೇ ಚ ಪ್ರಮಿಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿನೇ ಚೇಷು ದಿವತೆ ಚ ನಮಸ್ತೀಷ್ಣೇಶವೇ ಚಾಯುಧಿನೇ ಚ ನಮ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮ ಶ್ರುತ್ಯಾಯ ಚ ಪತ್ಯಾಯ ಚ ನಮ ಕಾತ್ಯಾಯ ಚ ನೀಭ್ಯಾಯ ಚ ನಮ ಶೂರ್ಯಾಯ ಚ ಸದಸ್ಯಾಯ ಚ ನಮೋ ನಾದ್ಯಾಯ ಚ ವೈಶಂತಾಯ ಚ ನಮ ಕೋಪ್ಯಾಯ ಚ ಭತ್ಯಾಯ ಚ ನಮೋ ವರ್ಷಾಯ ಚ ವರ್ಷಾಯ ಚ ನಮೋ ಮೇಘ್ಯಾಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮ ಈದ್ರಿಯಾಯ ಚ ತಪ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಪಾಯ ಚ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಸ್ತಾಮ್ರಾಯ ಚಾರುಣಾಯ ಚ ನಮ ಶಂಗಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇ ವದಾಯ ಚ ದೂರೇ ವದಾಯ ಚ ನಮೋ ಹಂತ್ರೇ ಚ ಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ತಾರಾಯ ನಮಃ ಶಂಭವೇ ಚ ಮಯೋಭವೇ ಚ ನಮ ಶಂಕರಾಯ ಚ ಮಯಸ್ಕರಾಯ ಚ ನಮ ಶಿವಾಯ ಚ ಶಿವತರಾಯ ಚ ನಮಸ್ತೀರ್ಥ್ಯಾಯ ಚ ಕೋಲ್ಯಾಯ ಚ ನಮ ಪಾರ್ಯಾಯ ಚ ಭಾರ್ಯಾಯ ಚ ನಮ ಪ್ರತರನಾಯ ಜೋತರನಾಯ ಚ ನಮ ಆರ್ತಾರ್ಯಾಯ ಚ ಲಾರ್ಯಾಯ ಚ ನಮ ಶಶ್ವ್ಯಾಯ ಚ ಪೇರ್ಯಾಯ ಚ ನಮ ಶಿಖತ್ಯಾಯ ಚ ಪ್ರಭಾಹ್ಯಾಯ ಚ ನಮ ಇರಿಣ್ಯಾಯ ಚ ಪ್ರಪತ್ಯಾಯ ಚ ನಮ ಕಿಗುಂಶಿಲಾಯ ಚ ಕ್ಷಯನಾಯ ಚ ನಮ ಕಪರ್ದಿನೇ ಚ ಪುರಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮಸ್ತರ್ಭ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮ ಕಾತ್ಯಾಯ ಚ ಗಂಬರೀಷಾಯ ಚ ನಮೋ ಹೃದಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮ ಪಾಗುಂಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಭ್ಯಾಯ ಚೋಲಭ್ಯಾಯ ಚ ನಮ ಊರ್ವ್ಯಾಯ ಚ ಸೂರ್ಯಾಯ ಚ ನಮ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶದ್ಯಾಯ ಚ ನಮೋ ಪಗುರಮಾನಾಯ ಚ ಭಿಗ್ನತೆ ಚ ನಮ ಆಖಿದತೆ ಚ ಪ್ರಖಿದತೆ ಚ ನಮೋ ಭಕ್ತಿರಿಗೇಭ್ಯೋ ದೇವಾನಾಗುಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ಭಕ್ತೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೇಭ್ಯೋ ನಮ ಆಮಿರ್ಭಕ್ತೇಭ್ಯಃ ದ್ರಾವಿ ಅಂಧಸಸ್ಪತಿ ದರಿದ್ರ ನೀಲ ಲೋಹಿತ ಏಷಾಂ ಪುರುಷಾನಾಮೇಷಾಂ ಪಶೂನಾಂ ಮಾ ಭೇರ್ಮಾ ರೋಮೋ ಏಷಾಂ ಕಿಂಚನಾಮಮತ याते रुद्र शिवा तनु शिवा विश्वाह भेषजे शिवा रुद्रस्य भेषजे तया नो मृद जीवसे इमागुम रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा न शमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्न नातुरम् मृदानो रुद्रो तनो मयस्कृति क्षयद्वीराय नमसाभिधेमते यच्छं च योश्च मनुराय चे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकं मान उक्षन्तमुतमान उक्षितम् मानो भजे पितरं मोद मातरं प्रियामानस्तनुवो रुद्ररीदिशः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीदिशः वीरान् मानो रुद्रवामितो बदिर्ह विष्मन्तो नमसा विदेमते आराते गोग उत पुरुषग्ने क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अधि च देव भ्रूयदा च न शर्म यच्च द्विवर्हाः सुहिश्रुतम् गर्ज सदम् युवानम् मृगन्न भीममुपहन्तुमुग्रम् मृदा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परियो रुद्रस्य हेते वृणक्तु परित्वेषस्य दुर्मतिरगायोः अवस्थिरा भगवद्व्यस्तनुष्वमीद्वस्तोकायतनयाय मृदया मीदुष्टमशिवतम शिवो न सुमना भव परमे भिक्ष आयुधन्निदाय कृत्रिम् वसान आचर पिनाकम् बिभ्रदा गहे विगिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुभोस्तव हेतयः तासामीशानो भगवत्पदाचीना मुखाकृति सहस्राणि सहस्रशो ये रुद्राधिभूया तेषागुम् सहस्रयो जने वदन्वानि तन्मसे अस्मिन् महन्त्यर्णवे अन्तरिक्षे भवा अधि नीलग्रीवाशिति कण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशिति कण्ठा दिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवाभिलोहिताः ये भूतानामधिपतयो विशिकाशकपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पतां प्रतिरक्षय ऐलभिदाय व्युदः ये तीर्थानि प्रचरन्ति शिकावन्तो निषङ्गिनः य एतावन्तस्य भूयागुंसस्य दिशो रुद्राविदश्चिरे तेषागुम् सहस्रयो जने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्यायेऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचे दश दक्षिणा दश प्रचेचे दशो देशे दशो द्वासेभ्यो नमस्ते नो मृदयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् मे ददामि त्रयम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दना मृत्योर्मोक्षेयमामृतात् यो रुद्रो अग्नो यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुधम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे మృత్యవేశ్వాహా ప్రాణానాం గ్రంథిరసి రుద్రోమా విశాంతకః తేనాప్యాయస్వ నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తమస్తు హి యశ్విషు సుధన్వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశో మనసాయ రుద్రం నమో దేవమసురం దువస్య అయం మే హస్తో భగవానయం మే భగవత్తరః అయం మే విశ్వవే సజో యగుం శివా విమర్శనః శాంతి 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 ఓం మగ్నా విష్ణు సజోష సేమా వర్ధంతు వాం గిరః జుమ్నే వాజే విరాగతం వాచశ్చ మే ప్రసవశ్చ మే ప్రయతిష్ట మే ప్రసితిష్ట మే ధీరిష్ట మే క్రతుష్ట మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శృతిష్ట మే జ్యోతిష్ట మే శుభశ్చ మే ప్రాణశ్చ మే పానశ్చ మే వ్యానశ్చ మే శుశ్చ మే చిత్తం చ మహాధీతం చ మే వాక్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మ ఓజశ్చ మే సహశ్చ మ ఆయుశ్చ మే జరా చ మ ఆత్మా చ మే తనూశ్చ మే శర్మ చ మే వర్మ చ మేంగాని చ మే సాని చ మే పరోగుంసి చ మే శరీరాని చ మే జ్యేష్టం చ మ ఆధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మే మశ్చ మే మశ్చ మే జేమా చ మే మహిమా చ మే వరిమా చ మే ప్రతిమా చ మే వైష్మా చ మే ద్రాగుయా చ మే వృద్ధం చ మే విదృశ్య మే సత్యం చ మే శ్రద్ధా చ మే జగత్ చ మే ధనం చ మే వశశ్చ మే త్రిశిశ్చ మే క్రీడా చ మే మోద మే జాతం చ మే జనిష్యమానం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యత్ చ మే సుఖం చ మే సుపతం చ మరుద్రం చ మరుద్రిశ్చ మే క్లిప్తం చ మే క్లిప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే శం చ మే మయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సోమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిడం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే ధ్యాత్రం చ మే శూశ్చ మే ప్రసూ మే క్షీరం చ మే లయశ్చ మరితం చ మే మృతం చ మే యక్ష్మం చ మే నామయశ్చ మే జీవాతుశ్చ మే దీర్ఘాయుద్ధం చ మే నమిత్రం చ మే భయం చ మే సుఖం చ మే శయనం చ మే శూషా చ మే శుదినం చ మే ఊచ మే సూరితా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే శక్తిశ్చ మే సపీతిశ్చ మే కృషిశ్చ మే భృషిశ్చ మే జైత్రం చ మహోభిద్యం చ మే రాయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభు చ మే ప్రభు చ మే బహు చ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితి మే కూయవాశమేణం చ మే శుశ్చ మే వ్రీహయశ్చ మే యవాశ మే మాసాశ మే తిలాశ మే ముద్గాశ్చ మే కల్వాశ మే గోధూమాశ మే మసురాశ మే ప్రియంగవశ్చ మే నవశ్చ మే శ్యామాకాశ మే నివారాశ మే अस्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शीशम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्णपच्यम् च मे कृष्णपच्यम् च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्रस्ता च म इन्द्रश्च मे दाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनो च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथ्वी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे जोश्च म इन्द्रश्च मे जिषश्च म इन्द्रश्च मे मूढा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंशुश्च मेऽन्तर्यामश्च म ऐन्द्रावरुणश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे तिग्रायाश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुद्वतीयाश्च मे माहेन्द्रश्च मे आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पोषश्च मे पार्थिवश्च मे आर्योजनश्च मे इन्वश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे शुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे विषवने च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवृच्च म आधवनीयश्च म आग्नेयेन्द्रम् च मे अभिर्धानम् च मे गृहाश्च मे सदश्च मे पुरोदासाश्च मे वचताश्च मे वभृतश्च मे स्वाकारश्च मे अग्निश्च मे गर्वश्च मेरश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे जितिश्च मे जितिश्च मे द्योश्च मे शक्वरे रङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरा त्रयो वृषा बृहद्दन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वक्षाश्च मे त्रयभिश्च मे त्रयभिः च मे दित्यवाच मे दित्योभिः च मे पञ्चाभिश्च मे पञ्चाभिः च मे त्रिवत्साश्च मे त्रिवत्सा च मे तुर्यवाच मे तुर्योभिः च मे पष्टवाच मे पष्टोभिः च म उक्षा च मे वशा च मर्षभश्च मे देहश्च मे ध्वाच मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् पाणो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताम् श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रस्य मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मे षोडश मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे अष्टाविगुंसतिश्च मे द्वाद्विगुंसच्च मे षट्त्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे अष्टाचत्वारिगुंसच्च मे वाचश्च प्रसवश्चापि चश्च क्रतुश्च शुभश्च मूर्धा च व्यश्निः ध्यायनश्चाद्यश्च भोवनश्च भुवनश्चाधिपतिश्च इयादेवहूर्वमनुर्यज्ञने बृहस्पतिरुक्ता वदानि सपुंसि सद्विश्वे देवासु उक्तवाच पृथिवीमातर्मा माहिगुंसि मधुमनिष्ये मधुजनिष्ये मधुभक्ष्यामि मधुवदिष्यामि मधुमतिम् देवेभ्यो वाचमुद्याशगुं शुश्रूषेण्या मनुष्येभ्यस्तम्मादे वा अभन्तु शोभाये पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः तच्चयो राप्रणेमहे गातुं यज्ञाय गातुं यज्ञपतये देवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिं विश्वतो विश्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुं सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येशानः यजन्येनातिरोहति एतावानस्य महिमा अतो जायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादुर्व उदय पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वं व्यक्रामत शासनानशने अभि तस्मात् विराज जायत विराजो अधिपुरुषः स जातो अत्यलिच्छत पश्चाद्भूमिमतो पुनः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीराजम् ग्रीष्म हिम शरद्गविः सप्तास्यासन् परिदयः त्रिसप्तः समिदकृताः देवा यज्ञाः अबध्नन् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षन्न पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयस्य ये तस्माद्यज्ञात् सर्वभूतः समृतम् पृषराजम् पशुगुष्टागुश्चक्रे वायव्यान आरण्यान् ग्राम्यास्य ये तस्माद्यज्ञात् सर्वभूतः ऋचः सामानि जग्निरे చంద్రాగుంసి జగ్నిహే తస్మాత్ యజుస్తస్మాజ్జాయత తస్మాదశ్వా అజాయంత ఏకేచో భయాదతః గావోహ జగ్నిరే తస్మాత్ తస్మాజ్జాత అజావయః యత్పురుషం వ్యదదుః కతిధా వ్యకల్పయన్ ముఖం కిమస్య కో బాహుః కాహూరుపాదాహుచ్యేతే బ్రాహ్మణోశ్య ముఖమాసీత్ బాహూరాజన్యః కృతః ఊరుదరస్య యద్వైషః పద్భ్యాగుంశుద్రో అజాయత చంద్రమావనసో జాతః చక్షో సూర్యో అజాయత ముఖాదింద్రశ్చాగ్నిశ్చ ప్రాణాద్వాయురజాయత నాభ్యా ఆసీదంతరిక్షం శేష్ణోర్ధ్యో సమవర్ధత పద్భ్యా భూమిర్దిశ శ్రోత్రాత్ తథా లోకాగుం అకల్పయన్ వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసస్సు పారే సర్వాణి రూపాణి విచిత్య ధీరః నామాని కృత్వాభివదన్యదాస్తే దాతా పురస్తాద్యముదా జహార శక్ర ప్రవిద్వాన్ ప్రజితస్రతస్రః తమేవం విద్వానమృత ఇహ భవతి నాన్యపంథాయనాయ విద్యతే యజ్ఞేన యజ్ఞమయజంత దేవాః తాని హర్మాణి ప్రథమాన్యాసన్ తే హనాకం మహిమాన సృజంతే యత్ర పూర్వే సాధ్యా సంతి దేవాః అద్య సంభూతం పృథివ్యేరసాచ విశ్వకర్మణః సమవర్ధతాది తస్య తుష్టాభిదద్రూపమేతి తత్పురుషస్య విశ్వమాజానమగ్రే వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసః పరస్తాత్ తమేవం విద్వానమృత ఇహ భవతి నాన్యపంథా విద్యతే యనాయ ప్రజాపతిశ్చరతి కల్పే అంతః అజాయమానో బహుధా విజాయతే తస్య ధీరా పరిజానంతి యోనిం మరీచీనాం పదమిచ్ఛంతి భేదసః యో దేవేభ్యాతపతి యో దేవానాం పురోహితః పూర్వో యో దేవేభ్యో జాతః నమో రుచాయ బ్రాహ్మయే రుచం బ్రాహ్మం జనయంతః దేవా అగ్రే తదబ్రువన్ యస్యైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అసన్వసే రీష్టతే లక్ష్మీ శవన్యో అహోరాత్రే పార్శ్వే నక్షత్రాని రూపం అశ్వినో వ్యాతం ఇష్టం మనిషానా అముం మనిషానా సర్వం మనిషానా తచ్చయోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్తు ద్విపదే షన్ చతుష్పదే ఓం శాంతి శాంతి శాంతిః ఓం సహనాభవతు సహనో భునక్తు సహ వీర్యం కరవావహే తేజస్వినావధీతమస్తు మా విద్విషావహే ఓం శాంతి shanti shanti shantihi ata purusho hame narayano kamayat praja srijeyeti narayanat prano jayate manas sarvendriyani cha khambayur jyotirapa prithivi vishvasya dharini narayanat brahma jayate narayanat rudro jayate narayanat indro jayate narayanat prajapataya prajayante narayanat dvadashaditya rudra vasava sarvani cha chanda gumse narayanat deva samutpadyante narayane pravartante narayane praliyante om adanityo narayanah brahma narayanah shivasya narayanah shakrasya narayanah dvava prithivyo cha narayanah kalasya narayanah dishasya narayanah udvasya narayanah adhasya narayanah antarbahisya narayanah narayana evedagum sarvam yadbhutam yachabhavyam nishkalo niranjano nirvikalpo nirakyata shuddho deva eko narayanah na dvitiyo osti kaschita ya evam veda sa vishnu deva bhavati sa vishnu deva bhavati om nitya krivya hare nama iti pashat narayana yetu parishtat om nitya kaksharam nama iti dve akshare narayana yeti pancha asharani etadve narayana syat saksharam padam yo have narayana syashtaksharam padamadyete anapabhruva sarvamayuneti vindate praja pratyavum rayusposham gopatyam tato mritatvam ashnute tato mritatvam ashnuta iti ya evam veda pratyakananda brahma purusham pranavasvarupam akara ukara makara iti tane kada samvaratta detado miti yamutva mucchate yogi janma samsara bandhanat Om namo narayanayeti mantropachakah vaikuntha bhuvanalokam gamishyate taridam param pundarikam vidyanaganam tasmat taditam vanmatram brahmanyo devaki putro brahmanyo madhusudano sarvabhutastamekam narayanam कारणरूपमकारपरब्रह्मो एतदतर्वशिरो यो दीते प्रातरधियानो रात्रिकृतं पापं नाशयति सायमधियानो दिवसकृतं पापं नाशयति माध्यादिकादित्यो मुखो दीयानो पञ्चपातकोपपातकान् प्रमुच्यते सर्ववेदपारायण पुण्यं लभते नारायण सायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति य एवं वेद इत्युपनिषद सहना भवतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः।
यश्चन्द्रशा वृषभो विश्वरूपः चन्द्रोऽभ्योद्यमुता सम्बभूव समेन्द्रो मेधया स्मृणोतु अमृतस्य देवधारणो भूयासं शरीरं मे विचर्षणं जिह्वा मे मधुमद्यमा कर्णाभ्या भूरिविश्रुवं ब्रह्मण कोशोऽसि मेधया पिहितः श्रुतं मे गोपाया मेधा देवी जुषमाना नागा द्विष्वाचिर्भद्रा सुमनस्य माना त्वया जुष्टा नुदमाना दुरुक्ता बृहद्वदेम वितते सुवीराः त्वया जुष्टा ऋषि भवति देवि त्वया ब्रह्मा गतश्रीरुत त्वया त्वया जुष्टश्चित्रम् विन्दते वसुसानु द्विषस्वद्रविणो न मेधे मेधा म इन्द्रो ददातु मेधा देवी सरस्वती मेधा मे अश्विना भुवा वाजताम् पुष्करसृजा अप्सरासु चया मेधा गन्धर्वेषु चयन्मनः देवी ए मेधा सरस्वती सा मा मेधा सुरभिर्जुषता गुस्वाहा आमा मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगति यशगम्या ऊर्जस्वती पयसा पिन्वमाना सा मा मेधा सुप्रतीका जुषन्ता मयि मेधा मयि प्रजा मयि अग्निसेजो दधातु मयि मेधा मयि प्रजा मयि इन्द्रियम् दधातु मयि मेधा मयि प्रजा मयि सूर्यो व्राजो दधातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् ॐ शान्ति शान्ति शान्तिः। पुरुषस्य विद्महसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दि प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्न षण्मुख प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुड प्रचोदयात् वीरात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ओ ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् वज्रनखाय विद्महे तीक्ष्णगजुष्टाय धीमहि तन्नो नारसिंह प्रचोदयात् भास्कराय विद्महे महाज्योतिकराय धीमहि तन्नो आदित्य प्रचोदयात् वैश्वानराय विद्महे दादीलाय धीमहि तन्नो अग्नि प्रचोदयात् कात्यायनाय विद्महे कन्याकुमारी धीमहि
तन्नो दुर्गे प्रचोदयात्। ॐ सारेश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्व प्रचोदयात्। ॐ शान्ति शान्ति शान्तिः। धाता पुरस्ताद्यमुदा जहार शक्र प्रविद्वान् रजितस्रतस्रः तमेवं विद्वानमृत इह भवति नान्यपन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमानित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायण परो ज्योतिरात्मा नारायणः परः नारायण परम् ब्रह्म तत्त्वम् नारायणः परः नारायण परो ध्याता ध्यानम् नारायणः परः यच्च किञ्चित् जगत् सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत् सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेन्तम् विश्वशम्भुवम् पद्मकोशप्रतीकाशगुम् हृदयम् चाप्यदोमुखम् अधो निश्चापितस्यान्ते नाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत सन्ततगुम् शिलाभिस्तुलम्बत्या कोशसन्निभम् तस्यान्ते शुशृगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महाअग्नि विश्वाचिर्विश्वतोमुखः सोग्रभु विभजन्तिष्ठम् नाहारमजर कविः तीर्वगुर्वामदस्यायि रश्मयस्तस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्तकः तस्य मध्ये वह्निशिखा अनियोर्ध्वा व्यवस्थितः नीलतो यदमध्यस्ता द्वित्युल्लेखे भभास्वरा नीवारशोकवत्तन्वि पीताभास्वत्यनुपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्म स शिव स हरिसेन्द्र सोऽक्षर परमस्वरात् हृदगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात्। शान्ति शान्ति शान्तिः। जातवेदसे सुनवाम सोममराति यतो निदहाति वेदः स न पर्षदति दुर्गानि विश्वानामेव सिन्धुम् दुरितात्यग्निः ताम्मग्निवर्णाम् तपसा ज्वलन्तीम् कैरोचनीम् कर्मफलेषु जुष्टा दुर्गाम् देवी गुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्नेत्वं पारयानव्यो अस्मात् स्वस्ति विरति दुर्गानि विश्वा पूष पृथिवी बहुला न उर्वीर्भवतो कायतनयाय शय्यो विश्वानि नो दुर्गः जातवेद सिन्धुन्दनावादुरितातिपर्षि अग्ने अत्रिवन्मनसा गृधानो अस्माकं भोज्य वितातनूना प्रदनाचितगुं सहमानमुग्रमग्निगुं हुवेम परमासदस्तात् स न पश्यति दुर्गानि विश्वा क्षामद्येवो अतिदुरितात्यग्निः प्रत्नोषि कमेथ्यो अर्वरेषु सना च होत नव्यस्य सत्से स्वां चाग्ने तनुवं विप्रयस्वास्मद्यं च सोभगमाय जस्व गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्टमभि संवसानो वैष्णवीं लोक इह मादयन्ता कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् निधनपतये नमः निधनपतान्तिकाय नमः
ऊर्वाय नमः ऊर्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः शर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत् सोमस्य सूर्यस्य सर्वलिङ्गग्रस्थापयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवेनाति भवे भवस्व माम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोर्मनाय नमः अघोरेभ्यो तघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदयात् ईशान सर्वविद्यानाम् ईश्वर सर्वभूतानाम् ब्रह्माधिपति ब्रह्मणोऽधिपति ब्रह्मा शिवो मे अस्तु सदा शिवो नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतये उमापतये पशुपतये नमो नमः हृदगुं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ऊर्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु
पुरुषो वे रुद्रस्सन्महो नमो नमः। विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं जयत। सर्वो येष रुद्रस्तस्मै रुद्राय नमो अस्तु। कद्रुदाय प्रचेतसे मे दुष्टमाय तव्यसे। वोचे मदन्तमगुं हृदे सर्वो येष रुद्रस्तस्मै रुद्राय नमो अस्तु। ॐ शान्ति शान्ति शान्तिः। स्वस्ति प्रजाभ्यः परिपालयन्ताम् ज्ञानेन मार्गेण महीमहिषा। गोब्राह्मणेभ्यः शुभमस्तु नित्यम्। समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति शान्तिः।